गुरुरेव गतिर्गुरुमेव भजे गुरुनैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो। सर्वेभ्यः राम राम राम। अद्यतन कक्षार्थं सर्वेभ्यः स्वागतम्। आचार्यान् मातृन् पितृन् सर्वान् गुरून् गणपतीन् नत्वा अद्यतन कक्षां प्रारम्भं कुर्मः। तत्र प्रथमाध्यायस्य भगवद्गीतायाम् अध्ययनं चर्चा च अस्माभिः तत्र क्रियते। अर्जुन विषादयोगः, द फर्स्ट् चाप्टर् आफ् श्रीमद् भगवद्गीता, अर्जुन विषादयोगः, विच् हेस् 47 श्लोकास्। वी हव् बीन् डिस्कसिङ्ग् अराउण्ड् द फर्स्ट् चाप्टर्। जस्ट् प्रिपेरिङ्ग् अ स्माल् टेबल् चार्ट् फार् दिस् चाप्टर्, इफ् यु केन् सी दिस् चार्ट् हियर्। तत्र सैन्यवर्णनम्, द फर्स्ट् वन् श्लोका नम्बर् 1 to 11 इफ् यु सी इस् प्रिडामिनेण्ट्लि आन् द इन्ट्रोडक्षन् एण्ड् द सैन्यवर्णन। So that is being done in the first 11 shlokas. So first shloka, Dhritarashtra talks to Sanjaya. Second shloka, Sanjaya tells to Dhritarashtra. 3 to 6, if we see shloka number 3 to 6, talks about the Pandava Sainya Varnanam, which is done by Duryodhana to Dronacharya. 7, 8, 9 talks about the Kaurava Sainya Varnanam. 10 about the Paryaptam Aparyaptam concept, and 11 is Kartavyam Bhishma Rakshanam. That is the decision which he gives in shloka number 11. Going to the next part, the second part in the graph which we have, the table what we have here, shloka 12 to 19, very easy to remember. All the Shankanadah Shankadi Vadya Vastunam Nadah तेषां परिणामश्च इति स्वीकर्तुं शक्यते। वी केन् सी 12 भीष्मनाद, 13 सर्वत्र शङ्कनादः, 14, 15, 16, 17, 18 पाण्डवसैन्यघोषः, 19 परिणामः। 20 to 23 इस् अर्जुनस्य युद्धोत्साहः। वी केन् सी द उत्साह आफ् अर्जुन इन् दट्। 24, 25, 26, 27 इस् उभयोः सेनयोः मध्ये रथस्थापनं बन्धुदर्शनञ्च इति स्वीकर्तुं शक्यते। जस्ट् टु समरैस् वाट् वी हव् डन् टिल् नौ एण्ड् कीप् अ समरी आफ् फस्ट् चाप्टर्, दिस् टेबल् हेल्प्स् अस् अलाट् इन् दट्। 28 to 46 इफ् यु सी इस् द मेन्ली द अर्जुन विषाद, वाट् इस् आक्चुली द सब्जेक्ट् मेटर् आफ् प्रथमाध्याय, एवं तत्र द्रष्टुं शक्यते अस्माभिः। श्लोका 28, 29, 30 इस् दैहिक मानसिक बाधा experienced by Arjuna. We have already seen that. 31, 32, we just saw that in the previous class. Viparitani Nimittani and Nakankshe Vijayam Krishna. Let us go to shloka 33, 34. Let us see how much we can cover in today's class. The Agrima shloka, all these talk about the Arjuna Vishada Yoga only. गतकक्षायाम् अस्माभिः तत्र विपरीतानि निमित्तानि सर्वं दृष्टमासीत्। अनन्तरम् अर्जुनः वदति न काङ्क्षे विजयम्, राज्यं सुखानि किमपि न काङ्क्षे इत्यपि सः उक्तवान्। अग्रे किं वदति इति पश्यामः। टेक् श्लोका नम्बर् 33 आफ् फस्ट् चाप्टर् आफ् श्रीमद्भगवद्गीता। येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च, तयिमेव स्थिता युद्धे प्राणान् त्यक्त्वा धनानि च, आचार्याः पितरः पुत्राः तथैव च पितामहाः, मातुलाश्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा। Please read the shloka 2 times. Shlokam tavat dvivaram patantu. Let us take 33 and 34 together because it is easy for us to understand and conclude and finish the purnataya vakyam kartum tavat. It is easy if we take both shloka 33 and 34 together. Paracchedaha pashyantu. Yesham arthe kankshitam naha rajyam bhogaha sukhani cha, ते इमे अवस्थिताः युद्धे प्राणान् त्यक्त्वा धनानि च, आचार्याः पितरः पुत्राः तथा एव च पितामहाः मातुलाः शुशुराः पौत्राः श्यालाः सम्बन्धिनः तथा. कृपया अन्वयं पश्यन्तु. प्लीज सी द अन्वय. हौ डस् द अन्वय कम? प्लीज ट्राई टू फॉर्म द अन्वय बाय युवर सेल्फ. वाक्यं तावत् अर्जुनः कृष्णं प्रति वदति. अर्जुन टेल्स टु कृष्ण. तत्र पश्यामश्चेत् येषाम् अर्थे राज्यं भोगाः सुखानि च काङ्क्षितं ते इमे आचार्याः पितरः पुत्राः पितामहाः मातुलाः शुश्राः पौत्राः शालाः तथा सम्बन्धिनः प्राणान् धनानि च त्यक्त्वा युद्धे अवस्थिताः. इफ् यु आस्क् अ बेसिक् क्वेश्चन् फार् हूम् डु वि आल् आक्चुलि टेक् सो मच् आफ् एफर्ट्स् फार् अवर् फ्रेण्ड्स् रिलेटिव्स् एण्ड् अलाङ्ग् वित् दट् किञ्चित् फार् अवर् सेल्फ्स् आल्सो. फार् एक्साम्पल् द सेम् क्वेश्चन् वास् आस्क्ड् टु रत्नाकर हू लेटर् आन् वेण्ट् आन् टु बिकम् वाल्मीकि when he was trying to hurt lot of people and when he was trying to rob people. Ratnakara, when he was a taskara. For whom are you doing all this? For my wives. Please go and ask them if they are going to take the papa phala coming out of it. When he went and asked, they said, no, we are not responsible. It is your duty to get the food. However you get to it, you take that responsibility for it. And then he realized the bandhana, samsara bandha, samsara dukkha mirasti. He realized that and he came back and took Ramanama upadesham and did japa until an anthill came over him, and then he got Rama Sakshatkara and wrote the Ramayanam, became the Adikavi. We see that. So the same concept if we see here, Arjuna says, yesham arthe rajyam bhogaha sukhani kankshitam. For those people whose sake actually I am trying to bring all these empire enjoyments and pleasures, finally, what will you do if alone, if you are getting crores of money and you are alone sitting and enjoying, you cannot enjoy it beyond a point. You need some family, friends, relatives with whom you can share, you can then enjoy those property and other things. Evameva Arjuna happy prichati Krishnam prati, yesham jananam bandhujananam mitravargana vargajanam sarvesham sakutumbanam krite tatra rajyam bhogaha rashtram antaram bhogyavastuni sukhani sukhadayakani vastuni yadat sarvam maya ipsitam vanchitam kankshitam vartate te eva sarve nabhavanti chete kim prayojanam. The other words of the shloka are very simple. They are only relationship dyotaka shabdah. Bandhutva dyotaka shabdah. Pashyamah. Te ime, tadrshaha ime yete sarve, acharyaha, teachers, guravaha, pitaraha actually denotes all the pitru and the uncles or the forefathers who are alive. All. It denotes the entire pitruvargajaha sarveshaha. Pitruvargajaha ye santi te sarve, ye tatra dayadayaha santi te sarve, putraha my sons, my brother's sons, my cousin's sons, sarve api putraha eva bhavanti, asya putraha eva bhavanti, tatha eva pitamahaha, grandfathers, my cousin's grandfathers, their brothers, all those people. मातुलाः मेटर्नल् अङ्कल्स् ये तत्र मातृवर्गजाः सर्वे ये सन्ति ते सर्वे मातुलाः शुशुराः फादर्स् इन् ला. शुशुराः इति किमर्थं वर्तते? आम्, अत्र अर्जुनस्य बह्व्यः पत्न्यः आसन्. एवम् उलूचि, उलूपि एण्ड् लाट् आफ् पीपल् इन् लाट् आफ् सुभद्र, लाट् आफ् प्लेसस् ही वेण्ट्. ही डिड् दिग्विजय, गाट् लाट् आफ् fame and Draupadi ityadeha bahvyah patnyah asan tesham tasam sarvasam api tatra pitarah ye santi sarve shushuraha bhavanti pautraha grandsons shalaha bharyayaha sodaraha ye santi te sarve tatha sambandhinah anye bandhavaha te sarve api कुत्र भवन्ति इदानीं वेर आर दे स्टैंडिंग नौ सो प्राणान धनानि त्यक्त्वा युद्धे अवस्थिताः दे हैव कम हियर स्टैंडिंग हियर अवस्थिताः दे आर स्टैंडिंग इन द अरे इन द वॉट एवर अरे विच हैज बीन फॉर्म्ड बाय दुर्योधन दे आर ऑल स्टैंडिंग देयर चक्रव्यूह पद्मव्यूह वॉट एवर व्यूह इज देयर दे आर स्टैंडिंग देयर एवं तत्र अर्जुनः कृष्णं प्रति वदति पश्यामः येषाम् अर्थे फॉर दोज पीपल हू सेक राज्यम एम्पायर भोगाः एंजॉयमेंट सुखानि प्लेजर्स कांक्षितम हैज बीन डिजायर्ड बाय मी ते सर्वे अपि दे ऑल ऑफ देम इमे दीस पीपल आचार्याः टीचर्स पितरः अंकल्स पुत्राः सन्स पितामहः ग्रैंडफादर्स मातुलाः मैटरनल अंकल्स श्वशुराः फादर्स इन लॉ पौत्राः ग्रैंडसन्स श्यालाः ब्रदर्स इन लॉ तथा एज वेल एज अन्ये संबंधिनः बांधवाः रिलेटिव्स फ्रेंड्स एंड फैमिलीज प्राणान लाइफ धनानि वेल्थ त्यक्त्वा हैविंग रिनाउंस्ड अस्मिन् युद्धे अत्र अवस्थिताः आर स्टैंडिंग दिस बैटलफील्ड पदपरिचयं पश्यामः येषां यत् शब्दः दकारान्त सर्वनाम नपुंसकलिंग षष्टि बहुवचनम् अर्थे अव्ययम् राज्यं नपुंसकलिंग प्रथमैकवचनम् भोगाः अकारान्त पुल्लिंग प्रथम बहुवचनम् सुखानि प्रथम बहुवचनम् अव्ययम् कांक्षितम् हैज बीन डिजायर्ड बाय मी हैज बीन डिजायर्ड बाय मी इट इज इन पैसिव वॉइस कांक्षितम् अकारान्त नपुंसकलिंग प्रथमैकवचनम् ते तत् सर्व शब्दस्य तकारांत सर्वनाम ते प्रथमा विभक्ति बहुवचनम सह तौ ते इमे इदम शब्दः पुल्लिंग प्रथमा विभक्ति बहुवचनम आचार्याः अकारांत पुल्लिंग प्रथमा बहुवचनम पितृ ऋकारांत पुल्लिंग प्रथमा बहुवचनम पुत्राः अकारांत पुल्लिंग प्रथमा बहुवचनम तथा एव बोतर अव्ययास पितामहाः मातुलाः बोतर अकारांत पुल्लिंग प्रथमा विभक्ति बहुवचनम शुशुराः पौत्राः श्यालाः आल्सो सेम अकारान्तः पुल्लिङ्गः प्रथमाविभक्ति बहुवचनम् तथा अव्ययम् सम्बन्धिनः नकारान्तः पुल्लिङ्ग सम्बन्धिन् शब्दः प्रथमाविभक्ति बहुवचनम् प्राणान् अकारान्तः पुल्लिङ्ग द्वितीयाबहुवचनम् धनानि अकारान्तः पुल्लिङ्ग द्वितीयाविभक्ति बहुवचनम् अव्ययम् च त्यक्त्वा अव्ययम् कृदन्ताव्ययम् त्यज प्लस् त्वा भवति त्यज प्लस् त्वा त्यक्त्वा कृदन्तव्यम् त्वा प्रत्ययः युद्धे सप्तमी एकवचनम् अवस्थिताः अकारान्त पुल्लिङ्ग प्रथमाविभक्ति बहुवचनम् ओवराल् अर्थ पश्यामश्चेत् येषाम् अर्थे राज्यं भोगाः सुखानि च नः कांक्षितम् ते इमे आचार्याः पितरः पुत्राः तथा एव पितामहाः मातुलाः श्वशुराः पौत्राः श्यालाः तथा सम्बन्धिनः प्राणान् धनानि च त्यक्त्वा युद्धे अवस्थिताः सन्ति फर् हू सेक् इट् इस् डिजैर्ड् that empire enjoyment and pleasure should be ours they themselves stand here in the battle having renounced their life and wealth who are those people teachers uncles sons grandfathers maternal uncles father in law grandson brother in law and other friends family everybody vyakaran bhagam pashyamah kankshitam कांक्षितम् नः कांक्षितम् प्लस् नः अनुस्वार सन्धि नो राज्यम् नः राज्यम् विसर्ग सन्धि सकारादेशः रेफादेशः उकारादेशः गुणः भवति राज्यम् भोगाः अनुस्वार सन्धि इमे अवस्थिताः ते इमे त इमे यान्तावान्तादेश सन्धिः अनन्तरम् यकारस्य लोपः भवति प्रकृतिभावः फैनली त इमे अवस्थिताः इमे अवस्थिताः पूर्वोपसन्धिः अवस्थिताः युद्धे विसर्गसन्धिः लोपादेशः प्राणान् त्यक्त्वा प्राणांस् त्यक्त्वा सत्त्वसन्धिः प्राणान् प्रथमं तावत् रेफ विसर्ग अनुस्वार सकारश्च सत्त्वसन्धिः प्राणान् प्रत्यक्त्वा प्राणांस् त्यक्त्वा तथैव तथा एव वृद्धि पुत्राः तथैव पुत्रास्तथैव विसर्गसकार सम्बन्धिनस्तथा विसर्गसकाराः कृदन्तभागम् पश्यामः काङ्क्षितम् काङ्क्ष प्लस् तप्रत्ययः भूतकृदन्तः काङ्क्षितम् अवस्थिताः एण्ड् युद्धम् वि हव् आलरेडी सीन् त्यक्त्वा त्यज प्लस् क्त्वा एवम् श्लोका 33 and 34 अगेन् अर्जुन जस्ट् कण्टिन्यूस् हिस् प्रलपनम् जल्पनम् वाट् एवर् हि कीप्स् कण्टिन्यूयिङ्ग् इट् लेट् अस् सी द श्लोका नम्बर् 35 also today. Etan nahantumichhami ghanatopi madhusudana apitrailokya rajyasya hetoh kimnu mahikrute. At this point, anybody would have expected that the person who is listening opposite to him will ask some questions. They will interrupt and ask some questions. So what would that question next be? Okay, Arjuna, now you don't want anything, but let us say if somebody is coming and hitting you, as a matter of defense, self-defense, will you at least protect yourself, and for that at least will you fight? Should you not fight if somebody asks such a question like this? Arjuna is preempting this question in his mind already and replying by himself. Self-reply he is giving. Etan nahantumichhami ghnatopi madhusudana api trailokya rajyasya hetoho kimnu mahikrate. Shlokam tavate dvivaram patantu anvayam padachedam pashyantu anvayam pashyamaha padapadartham padaparichyam sarvam tavate pashyamaha. Shigram anvayam kurvantu padachedam pashyantu. भवतु पदच्छेदः एतान् न हन्तुम् इच्छामि घ्नतः अपि मधुसूदन अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते. हे मधुसूदन हे कृष्ण, मधु इति असुरस्य हन्ता हे मधुसूदन, त्रैलोक्यस्य राज्यस्य हेतोः अपि घ्नतः अपि etanna hantumichhami. There will be two reasons which people will give for Arjuna to fight. So, which are the two reasons if we take it? And if we see those two reasons, one will be for self-defense, one will be the kingdom which is going to be given to him. So, he is ruling out all possibilities or all vada, Prativada, which people will come and tell him so that they will inspire him to do this yuddha. He is trying to cover and finish off all those Prativada by himself. He Madhusudana, Trailokyasya Rajyasyapi Hetoho. Even if you are going to give me all the three lokas here, the Trilokamapi Yadi Tatra Bhavan Yachati Chedapi, even for all the three worlds, even if you give me an adhipatya, absolute power, dominion over the three worlds. Which are the three worlds? Upari loka, bhuloka, adholoka, patala loka, the three worlds. Tasya hetohopi, even for that, sorry, I am not ready to fight. Dutiyam tavat ghnataha api, even tatra, if they kill me, even if they are coming to kill you, ghnataha api, even if I am being hit by them, even then, etane, imane, kane, mama bandujanane, mitra vargajane, sarvane, api, tatra hantum, nashayitum, marayitum, nechami, nahivanchami, kimpunaha mahikrte. Then what for this only Bharatakanda, this Bhurajya, what? Three worlds also I don't want. Even if somebody kills me, I don't want. So I do not worry for my life. I do not worry for the Rajya. Then why, just because for this Bharata Desha, for this earth, Bhumi, for this will I fight? Will I even go and fight, you think? No, I am not going to fight. When people start giving more than one reason for their analysis, it always means that they are trying to convince themselves first. And then only they are actually talking to the other person. So, yetana, these people, hantum to kill, na ichhami, do not wish, kimnu far less indeed, mahi krite, mahi bhumi, bhumi praptaye, kimpunaha tatra, maya tatra yuddham kartum shakyam iti bhavan chintayati iti saha prichyati. He Madhusudana, akaranta pulinga sambodhana prathamaika vachanam, trailokya rajyasya trayanam lokanam samaharaha triloki eva trailokyam trailokyasya rajyasya trailokya rajyasya akaranta vamsakalinga shakti vakti ekavachanam. He toho api ukaranta pulinga shakti ekavachanam api avyayam, ghnataha api ghnat takaranta pulinga dutya vakti bhavachanam, ghnataha api yetane ஏதது தகாராந்த சர்வநாம சர்வ சர்வநாம சப்தஹ ஏதது புல்லிங்க த்விதியா விபக்தி பஹுவசனம் ஹந்தும் துமுன்னந்தாவ்யயம் அவ்யயம் ஹனு தாதோஹ ந இச்சாமி ந அவ்யயம் இச்சாமி இச்சாமி இது வயம் பஷ்யாமச்சேத் இஷு இச்சாயாம் சகர்மக சேட்டு பரஸ்மைபதி துதாதி லட்லகார உத்தம புருஷ ஏகவச்சனம் இச்சாமி இச்சதி இச்சத இச்சந்தி இச்சசி இச்சத இச்சத இச்சாமி இச்சாவஹ இச்சாமஹ ஹந்தும் ந இச்சாமி கிம் நு மஹி கிருதே கிம் மகாராந்த சர்வ சர்வநாம நபும்சகலிங்க பிரதம ஏகவச்சனம் கிம் மஹி கிருதே மஹி கிருதே தகாராந்த புல்லிங்க சதுர்த்தி விபக்தி ஏகவச்சனம் மஹி கிருதே ஹே மதுசூதன ஹே கிருஷ்ண யதி தே மாம் மாரயந்தி மாரயத்து காமம் தைஹி மார்யமாணோபி நாஹம் தான் மாரயத்தும் இச்சாமி நனு போஹோ த்ரைலோக்கிய ராஜ்யம் தவ சித்தியதி இதி யஹ் கோபி வததி சேதபி ததாபி நாஹம் மாரயத்தும் இச்சாமி ஏவம் ஸ்திதே கேவலாயாஹ அஸ்யாஹ பூமேஹே ப்ராப்தயே கிமஹம் மாரயாமி வா ஏவம் மாரயாமி இதி பவான் சிந்தயதி வா இதி தத்ர ஸ்லோகஸ்யாஸ்ய தாத்பர்யம் பவதி ஈவன் தோஸ் தீஸ் வேர் டு கில் மீ ஓ ஸ்லேயர் ஆஃப் மது ஐ குட் நாட் விஷ் டு கில் தெம் நாட் ஈவன் ஃபார் த சேக் ஆஃப் டொமினியன் ஓவர் த த்ரீ வேர்ல்ட்ஸ் ஹவு மச் லெஸ் ஃபார் த சேக் ஆஃப் திஸ் கேவல அர்த் இது சாவதி வியாக்கரண பாகம் பசியாம சந்தி க்னதோபி க்னதஹ அபி விசர்க சகார ரேஃப உகார குண பூரூப சந்தயஹ You have seen a similar form already. Just that whatever 5-6 steps are there, we need to be very clear about how that sandhi happens. Kim nu anuswara sandhi, achyutaha, we have seen that. Na achyutaha, achyutaha. Mahi krte, mahyaha krte, tasmai mahi krte, shashtirat purusha, kri dhatoho sarvesha vidhatuna martaha samavati iti krte, ityasya praptaye tyartaha mahi krte, for the usage in that way for something mahi krte for the sake of iti yadi vayam asmabhi upayogah kartavya chet krte iti padasya tatra yojanam kartum shakte gratah hanu dhatoh shatru pratyah gratah gnatah api gnann gnatau gnatah api evam ஹந்தும் ஹனுதாதோ துமுன் பிரத்யஹ மதுசூதனஹ மதும் தன்னாமகம் தைத்யம் சூதயதி இதி மதுசூதனஹ மது பிளஸ் சூது பிளஸ் நிச் ஸ்வார்த்தே பிளஸ் லுட் அனு பிரத்யஹ மதுசூதனஹ இதி பவதி இவம் அஸ்மாபி திருஷ்டமஸ்தி சோ ஈவன் ஃபார் த த்ரீ வேர்ல்ட்ஸ் ஈவன் இஃப் சம்படி ட்ரைஸ் டு கில் மீ ஈவன் தென் ஐ வில் நாட் கில் தெம் ஐ வில் நாட் டூ த வார் ஏவம் தத்ர அர்ஜுனஹ ஸ்வவாத சாமர்த்தியம் பிரதிபாதயதி ஸ்லோகா 33, 34, 35 வி ஹவ் சீன் ஆகாமி கக்ஷாயாம் அக்ரிம பாகம் பஷ்யாமஹ தாவத் பர்யந்தம் ப்ளீஸ் கோ த்ரூ த ஸ்லோகாஸ் மல்டிபிள் டைம்ஸ் அண்ட் எனி நியூ கான்செப்ட்ஸ் நியூ தாட்ஸ் ப்ளீஸ் டூ ஷேர் வித் ஆல் ஆஃப் அஸ் வி வில் ஷேர் இட் வித் த ஸ்டடி டீம் ஹியர் சர்வேபியஹ ராம் 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 யத்ர யோகேஸ்வர கிருஷ்ணோ யத்ர பார்த்தோ தனுர்த்ரஹ தத்ர ஸ்ரீர்விஜயோ பூதிர் த்ருவா நீதிர்ம திர்மம ஆகாமி கக்ஷாயாம் புனர்மிலாமஹ தாவத் பர்யந்தம் ராம் 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 தன்யவாதாஹ